इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्री नरेन्द्र मोदी ह्यः नवदिल्ल्यां संयुक्तराष्ट्रसंघस्य महासचिवस्य वित्तीय स्वास्थ्यस्य विशेषाधिवक्त्रा नीदरलैंड देशस्य राज्ञा मैक्सिमा इत्यनया सह मिलितवान्। सामाजिक माध्यम सन्देशे श्रीमोदिना उक्तं यत् भारतस्य डिजिटल क्रान्तिः वित्तीय सेवानां सारल्यं कृत्वा कथं सामान्यजनानां जीवनस्य सुगमतां वर्धयति, जनान् सशक्तञ्च करोति इत्यस्मिन् विषये द्वयोः मध्ये चर्चा अभवत्। प्रधानमन्त्री श्री नरेन्द्र मोदी श्वः आरभ्य 29 दिनांक पर्यन्तं सेशल्स देशस्य राजनैतिक यात्रायां भविष्यति। सः तत्र सेशल्स देशस्य राष्ट्रिय दिवसस्य स्वर्ण जयन्ती उत्सवे अतिथि रूपेण भागं गृहीष्यति। इतः पूर्वं प्रधानमन्त्रिणा 15-2000 वर्षे सेशल्स देशस्य भ्रमणं कृतमासीत्। विदेश मन्त्रालयेन विज्ञप्तौ उक्तं यत् भारतीय रक्षाबलानां एकं दलं भारतीय नौसेनायाः 2 नौकाभ्यां सह उत्सवे भागं गृह्णीयात्। यात्रा समये प्रधानमन्त्री सेशल्स देशस्य राष्ट्रपतिना डॉ पैट्रिक हर्मिनी इत्यनेन सह वार्तालापं करिष्यति, द्विपक्षीय सहकार्यस्य सम्पूर्ण समीक्षां करिष्यति, अथ च परस्पर हितस्य क्षेत्रीय अन्ताराष्ट्रिय विषयेषु च विचाराणाम् आदान प्रदानं करिष्यति। प्रधानमन्त्री सेशल्स देशस्य राष्ट्रिय सभायाः सम्बोधनञ्च करिष्यति, प्रवासी भारतीयैः सहापि संवादं करिष्यति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य नवदिल्ल्यां नार्को समन्वय केन्द्रे 10 शीर्षस्तरीय संगोष्ठ्याः अध्यक्षतां करिष्यति। मादक द्रव्य नियन्त्रण अभिकरण द्वारा आयोजिते अस्मिन् सत्रे केन्द्रीय मन्त्रालयानां राज्य सर्वकाराणां मादक द्रव्य विधि प्रवर्तन संस्थानाञ्च प्रतिनिधयः एकत्रिताः भविष्यन्ति, येन देशे सर्वत्र मादक द्रव्य व्यापारस्य मादक द्रव्यस्य दुरुपयोगस्य च निवारणार्थं प्रयत्नानां समीक्षायाः सुदृढीकरणञ्च भविष्यति। अस्मिन् अवसरे श्रीशाहः मादक द्रव्य नियन्त्रण विषयम् अग्रिम कार्ययोजना प्रतिवेदनञ्च विमोचयिष्यति। वाणिज्य उद्योगमन्त्री पीयूष गोयलः अवदत् यत् भारत यूके व्यापक आर्थिक व्यापार सन्धिः वैश्विक अर्थव्यवस्थायाः समर्थनाय बलगुणकस्य कार्यं करिष्यति। ह्यः लंदन नगरे भारत वैश्विक मंचस्य यूके भारत सप्ताहं संबोधयन् श्री गोयलः अवदत् यत् यूनाइटेड किंगडम्स देशेन सह कृत मुक्त व्यापार संधिः अद्यावधि भारतस्य सर्वाधिक व्यापक संधिः वर्तते। अस्मिन् मासे 21 दिनांके आयोजितायाः नीट यूजी पुनः परीक्षायाः अस्थायी उत्तरकुञ्जीनां दर्शनार्थं प्रश्नान् आह्वानं कर्तुञ्च राष्ट्रिय परीक्षण संस्थायाः गवाक्षम् उद्घाटितं वर्तते। एनटीए इत्यनेन घोषितं यत् उत्तरकुञ्जिका www.neet.nta.in इत्यत्र उपलभ्यते। छात्राः अस्य मासस्य 28 दिनांकपर्यन्तं प्रतिप्रश्नं 200 शुल्कं दत्त्वा प्रश्नान् आह्वानं कर्तुं शक्नुवन्ति। यदि आह्वानं स्वीकृतं भवति तर्हि एतत् शुल्कं पूर्णतया प्रतिदेयं वर्तते। सर्वकारेण औद्योगिक व्यापारिक द्रव अनिल इन्धनस्य आपूर्ति विषये सर्वाणि क्षेत्रीय प्रतिबन्धनानि दूरीकृत्य पश्चिम एशिया संकटात् पूर्वं प्रचलित स्तरं यावत् आपूर्तिं पुनः स्थापितं वर्तते। वेनेजुएला देशस्य कार्यवाहक राष्ट्रपतिः जॉर्ज रोड्रिगेज़ः घोषितवान् यत् द्वयोः शक्तिशाली भूकम्पयोः मध्ये मृतानां संख्या 88+100 अभवत्, सहस्रशः जनाः घातिताः, 200+ जनाः अद्यापि भूकम्पग्रस्ते प्रदेशे एव परिलग्नाः सन्ति। इति वार्ताः।